एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। रासोपा नाम्नो राष्ट्रिय स्वतन्त्र दलस्य अध्यक्षस्य रवि लामिछाने विदस्य नागरिकतायाः विषये सर्वोच्च न्यायालयेन विहितस्य न्यायिक प्रकरण सम्बद्धस्य निर्णयस्य पूर्णपाठस्य अप्राप्तिम् यावत् अनेन दलेन धैर्यम् धर्तव्यमिति नेकपा माओवादी केन्द्रम् ज्ञापयति। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालय ह्य उपविष्टस्य स्थायी समितेः उपवेशस्य विषये ज्ञापयन् केन्द्रस्य प्रवक्ता कृष्ण बहादुर महाराज रासोपा दलस्य अध्यक्षस्य लामिछानेविदस्य नागरिकता सम्बद्ध निर्णयस्य पूर्णपाठस्य प्राप्तिम् यावत् पुनः गृहमन्त्रिणी पदासीनतायाः विषये धैर्यधारणस्य सम्बन्धे दले विमृष्टमिति अवोचत। उपवेशे प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्डः रासोपा दलम् सर्वकारात् बहिर्न भविष्यतीति विश्वासम् व्यक्तवानिति प्रवक्ता महरा असूचयत। रासोपा दलात् सम्प्रति श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोल प्रसाद अरियाल, शिक्षा मन्त्री शिशिर खनाल, स्वास्थ्य राज्य मन्त्री डाक्टर तोसिमा कार्की च सन्ति। रासोपा नाम्नो राष्ट्रिय स्वतन्त्र दलस्य केन्द्रीय कार्य समितेः संसदीय दलस्य च संयुक्तोपवेशेन दिनद्वयानन्तरम् दलस्य उपवेशम् पुनः आयोज्य आवश्यक निर्णयम् विधातुम् निर्णीतम् वर्तते। रासोपा दलस्य केन्द्रीय कार्य समितेः संसदीय दलस्य च ह्यः चतुर्घण्टाः यावत् संचालितेन संयुक्तोपवेशेन दिनद्वयानन्तरम् उपवेशम् आयोज्य आवश्यक निर्णयम् विधातुम् निर्णीतमिति उपवेशस्य पश्चात् पत्रकारेभ्यो ज्ञापितम् अस्ति। प्रधानमन्त्री पुष्पकमला दाहाल प्रचण्डः निगदति सृष्टीणाम् सम्मानेन राष्ट्रस्य गरिमा उच्चैर्वर्धते। नेपाल ललित कला प्रज्ञा प्रतिष्ठानेन नक्साल स्थाने ह्य आयोजिताम् घटबन्धन नाम्नीम् चित्रकला प्रतिकला प्रदर्शनीम् उद्घाटयन् प्रधानमन्त्री दाहालः अगदत् ललित कला क्षेत्रे नेपालम् संस्थापयितुम् प्रतिष्ठानस्य भूमिका महत्वपूर्णा प्रशंसनीया च वर्तते। प्रधानमन्त्री दाहालः आत्मना प्रथमवारं प्रधानमन्त्रिणः कार्यकाले ललितकला प्रतिष्ठानस्य स्थापनायै आधार निर्मितः इति चर्चयन् सम्प्रति आत्मनि गर्वस्य अनुभूति भवतीति सन्तोषं प्राकटयत्। तदवसरे प्रधानमन्त्री प्रचण्डः ललितकला क्षेत्रे महत्वपूर्ण योगदान प्रदातृणां सृष्टीणां सम्मानेन सह ललितकला सम्बद्धानि सर्जनानि अवालोकयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भासते लोकतन्त्रस्य संस्थागतीकरणाय सुदृढीकरणाय च निर्वाचन प्रणाल्याः विधेः सुधारं विधाय राजनैतिक स्थिरतायाः संस्थापनं वर्तमाना आवश्यकता वर्तते। विराटनगरे ह्य संचारकर्मीभिः सह भाषमाणः अध्यक्ष ओली नेकपा एमाले दलस्य राष्ट्रपतिपदे प्रत्याशितायाः प्रस्तुतिर्नाम सत्तापक्षस्य वर्तमान सत्ता समीकरणस्य च प्रत्याशिता भवतीति समस्पष्टयत। सहमतेः अनुसारेण राष्ट्रिय स्वतन्त्र दलेन गृहमन्त्री प्राप्तव्यः परम् को गृहमन्त्री नियोक्तव्यः इति एतद्दलस्य दायित्वमस्तीति प्रतिपादयन् अध्यक्ष ओली विषयेऽस्मिन् किमपि विमृष्टम् नास्ति, सर्वकारे असहमतिश्च न वर्तते इति च समस्पष्टयत्। नेपाली कांग्रेस दलेन राष्ट्रिय सभायाः उपाध्यक्षाय प्रत्याशिता प्रस्तुष्यते। दलसभापतेः संसदीय दलस्य नेतृश्च शेरबहादेवाभिधस्य धुम्बा राई वर्तिनी निवासे ह्य उपविष्टेन कांग्रेस संसदीय दलस्य कार्यसमितेः उपवेशेन माघस्य त्रयोविंशे दिवसे सम्पत्स्यमानाय राष्ट्रिय सभायाः उपाध्यक्षस्य निर्वाचनाय प्रत्याशिताम् प्रस्तुतुम् निर्णीतमिति उपवेशस्य पश्चात् प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। प्रमुख सचेतक पदीयो लेखक माघस्य द्वाविंश दिवसे दलस्य पक्षतः राष्ट्रिय सभायाः उपाध्यक्षाय मनोनयनम् पञ्जीकारयितुम् अन्यै दलैः सहापि विमृश्य अग्रे वर्धितुम् च निर्णीतमिति अवोचत। एवमेव उपवेशेन कांग्रेस संसदीय दलस्य उपवेशम् माघस्य षड्विंशे दिवसे नयाँ बानेश्वर स्थितस्य संघीय संसद भवनस्य लोत्से सभाकक्षे आयोजयितुम् निर्णीतमिति च प्रमुख सचेतक पदीयो लेखकः अबोधयत्। नेकपा एकीकृत समाजवादी दलस्य सचिवालय उपवेशेन स्वस्य सर्वासाम् समितिनाम् विभागानाम् संगठनानाम् च निर्धारित समय सीमायाः अभ्यन्तरे अद्यावधिकीकरणाय निर्दिष्टमस्ति। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां ह्यः उपविष्टे उपवेशे संगठन निर्माणस्य कार्यम् अतिरिक्तं व्यवस्थितं विधातुं कार्ययोजनया सह सामयिक विषयेषु विमृष्टमिति उपमहासचिवः प्रचार विभागस्य प्रमुखश्च जगन्नाथ खतिवडा अज्ञापयत्। अस्यैव माघमासस्य एकविंश द्वाविंश दिवसयोः उपवेक्ष्यमाणे दलस्य केन्द्रीय समितेः उपवेशे प्रस्तोष्यमाणे राजनीतिक कार्यपत्रे विमर्शनं केन्द्रितमिति ज्ञापयन् उपमहासचिव खतिवड़ा उपवेशन कार्यपत्रमेत परिमार्ज प्रस्तुत निर्णीतम अस्तीति असूचयत। स्थानीय योजना निर्माण मंचस्य पंचमं अन्तर्राष्ट्रिय सम्मेलनम ह्यः काष्ठमण्डपे प्रारब्धमस्ति। एकीकृत जलवायुनुकूलन नगरीय विकासाय स्थानीय योजना इति समाघोषणा प्रारब्धे द्विदिवसीय सम्मेलनेऽस्मिन् एशिया प्रशान्त क्षेत्रस्य त्रयोदशानां देशानां नगरीय योजनाकाराणाम् उच्च पदस्थ कर्मचारिणां सम्बद्ध विषय विज्ञानाञ्च सहभागिता वर्तते। सम्मेलनम् उद्घाटयन् नगरीय विकास मन्त्री विक्रम पाण्डे सम्मेलनेन नीति निर्मातृभ्य नगरीय योजना कार्यभ्यश्च प्रभावकारिणां वैज्ञानिका नगराणां विकासस्य योजना निर्माणाय सहयोगो भविष्यतीति विश्वासं व्यक्तवान्। सभामुख देवराज घिमिरे कथयति संसदः गरिम्नः उच्चैः संस्थापनार्थं संसदः प्रभावकारितापादनम् उत्तरदायित्ववहनाय सबलीकरणं च आवश्यके स्तः। संघीय संसद सचिवालयेन वानेश्वरस्थिते संसद भवने प्रतिनिधिसभायाः सदस्यानां कृते ह्यः आयोजितं संसदीय प्रक्रियाभ्यासश्च इति विषयकम् अभिमुखीकरण कार्यक्रमम् उद्घाटयन् सभामुख घिमिरे एतद् अकथयत्। कार्यक्रमे उपसभामुख इन्दिरा राणा संविधानेन प्रदत्तानाम् अधिकाराणाम् क्रियान्वयनाय आत्मना विचलनेन विना अग्रे वर्ध्यते इत्यगदत्। विधिन्याय संसदीय विषय मन्त्री ध्रुवबहादुर प्रधान संसद सर्वै मदीयास्थिति अनुभावक स्थलस्य रूपेण विकसनीयेति अब्रवीत। संघीय संसद सचिवालयस्य महासचिव डाक्टर भरतराज गौतमः अकथयत् नवीनाभ्यासस्य मूल्यमान्यतानाञ्च विषयौ अवगन्तुम् तदनुरूपम् अग्रे वर्धितुम् च प्रशिक्षणेन सहजता सृज्यते। राष्ट्रिय सभाया राष्ट्रिय सम्बद्धता समन्वय समिते ह्यः उपविष्टेन उपवेशेन समितेः वार्षिक प्रतिवेदन क्रियान्वयनानुगमन मूल्यांकन प्रतिवेदनं पारितीकृतं वर्तते। सिंहप्रसादवर्तिनी संसद सचिवालये ह्यः उपविष्टे उपवेशे सांसदैः संसदीय समितिभ्यः प्रदत्तानि निर्देशनानि क्रियान्वेतुं सर्वेषु मन्त्रालयेषु पृथक् संयन्त्रं संस्थापनीयमिति विचारं व्यक्तवन्तः। एवमेव सांसदाः समितेः निर्देशनानां क्रियान्वयनस्य क्रमे अतिरिक्त व्यवहारे अपेक्षिते तस्य व्यवस्थाय अपि सम्बद्ध समित्या समन्वयो विधेया इति च परामृष्टवन्तः। समितेः सभापतिः दिलकुमारी रावल थापा पार्वती सांसदेभ्यः प्राप्तानि परामर्शनानि समाविश्य प्रतिवेदनं संसदि प्रस्तोष्यते इति च सूचितवती। राष्ट्रिय प्रजातन्त्र दलेन केन्द्रीय निर्देशन समितिः संगठिता वर्तते। दलस्य केन्द्रीय कार्यालये ह्यः उपविष्टेन केन्द्रीय कार्य सम्पादन समितेः उपवेशेन पूर्वाध्यक्षस्य डाक्टर प्रकाश चन्द्र लोहनी इत्यस्य संयोजकत्वे सप्तदश सदस्यीया केन्द्रीय निर्देशन समितिः संगठिता अस्ति। एवमेव दलस्य वरिष्ठोपाध्यक्षस्य रविन्द्र मिश्रस्य संयोजकत्वे कार्यविधि समितिः संगठिता विद्यते। मिश्रस्य संयोजकत्वे संघटितया कार्यविधि समित्या सर्वकारस्य दलस्य च मध्ये समन्वयः सहकार्यञ्च विधास्येते। एवमेव उपवेशेन आगामिनो वैशाख मासस्य प्रथमदिवसात् सक्रिय सदस्यता वितरणाभियानं सञ्चालयितुं निर्णीतमस्ति। अधिकार दुरूपयोगानुसन्धानायोगस्य द्वात्रिंश स्थापना दिवसस्य अवसरे भ्रष्टाचार नियन्त्रण सुशासन सदाचारैः सम्बद्धा सञ्चेतना मूलिका राष्ट्रव्यापिनी लोकगीत प्रतियोगिता अद्य समायोज्यते। आयोगस्य आयोजनायां सञ्चाल्यमानायाः प्रतियोगितायाः अद्य पूर्वाह्नस्य एकादशवादनस्य समाचारस्य पश्चात् रेडियो नेपालात् प्रत्यक्ष प्रसारणं विधीयमानं वर्तते। इति समाचाराः।